ब्रह्मा गुरुविष्णुगुरुदेव महेश्वर गुरुसाक्षात् पर्वम् तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः तत्र रसादीनां तत्र निरूपणं भक्षणम् इति सः विषयः समापितः किन्तु पुनरेकवारं किञ्चित् तस्मिन् विषये पठित्वा अग्रे तत्र अन्वयसहचारः इति तत्र नूतनविषयः आयाति किन्तु प्रथमतः तत्र रस इति तत्र तस्मिन् विषये एकः एव परिच्छेदः अन्तिमपरिच्छेदः वयं तत्र शीघ्रतया तं परिच्छेदं पठितवन्तः इति कृत्वा किञ्चित् तत्र एकवारं पठामः तदनन्तरम् अग्रे गच्छामः अस्तु तर्हि तत्र योगेन्द्रमहोदय नमस्कारः
नमस्कारः महोदय
नमस्कारः मृणालिनी भगिनी नमस्कारः नमस्कारः अस्तु तर्हि तत्र तर्हि तत्र नीता भगिनी आरम्भं करोति वा तत्र रूपादिचतुष्टयम् इति तत्र
रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च अन्यत्र अपाकजं नित्यम् अनित्यं च नित्यगतं नित्यम् अनित्यगतम् अनित्यम् अग्रिमे अपि पठामि वा
तावत्पर्यन्तं किञ्चित् वदतु भगिनी तदनन्तरं
रूपादिचतुष्टयम् इत्युक्ते रूपं रसः गन्धः स्पर्शः रूपादिचतुष्टयं पृथिव्यां पाकजम् अनित्यं तत्र पाकजम् इत्युक्ते पाकज पाकतेजसंयोगेन यत् फलं निष्पद्यते तत् अनित्यं तस्य नाशं भवति पृथिव्यां पाकजम् अनित्यं भवति अन्यत्र अपाकजं नित्यम् अनित्यं च अन्यत्र यत् पाकजं निष्पद्यते तत् नित्यमपि अस्ति अनित्यमपि अस्ति नित्यम् इत्युक्ते यस्य नाशं न भवति अनित्यम् इत्युक्ते यस्य नाशं भवति अनन्तरं
तत्र तत्र पृथिव्यां तत्र रूपादिचतुष्टयं रूपादि इति तत्र कीदृशपदार्थः
रूपः इति रूपम् इति गुणः
तर्हि तत्र गुणचतुष्टयं तत्र पृथिव्यां तत्र पृथिव्यां ते भवन्ति वा तत्र रूपं रसः गन्धः स्पर्शः तत्र पृथिव्यां भवन्ति वा
पृथिव्यां भवति
भवति रूपं भवति रसः भवति गन्धः तु निश्चयेन भवति स्पर्शः अपि
भवति
तत्र पाकजं तदनन्तरम् अनित्यम् इति दत्तमस्ति पाकजम् अनित्यम् अनित्यं नाम नाशः
तस्य नाशं
नित्यपदार्थः नास्ति ना अस्तु समीचीनम् अग्रे तत्र अन्यत्र अन्यत्र इत्युक्ते कुत्र
अन्यत्र इत्युक्ते पृथिव्यां वर्जयित्वा अन्यत्र
नाम तत्र जले
तेजसि वायौ
वायौ तत्र
अपाकजं निष्पद्यते अपाकजं निष्पद्यते ते नित्यमपि अस्ति अनित्यमपि अस्ति
तत्र अपाकजम् अस्ति तत्र अपि नित्यमपि अस्ति अनित्यमपि अस्ति समीचीनं अपि नित्यगतं
नित्यम् इत्युक्ते नित्ये नित्यपदार्थे यः गुणः वर्तते सः नित्यम्
उदाहरणार्थं
नित्यपदार्थे यः गुणः इत्युक्ते
नित्यपदार्थस्य उदाहरणं
नित्यपदार्थस्य उदाहरणं यदा कालः वा
किन्तु अत्र रूपम् अत्र रूपं रसः गन्धः स्पर्शः अस्मिन् तत्र जलपदार्थः इति स्वीकरोतु तत्र जलपदार्थस्य नित्यजलम् इत्युक्ते तत्र जल परमाणु खलु
नित्यप्रमाणु परमाणवः नित्यं रूपेण जायते
तत्र तर्हि जलपरमाणुः अस्ति चेत् जलपरमाणौ रसः अस्ति खलु
आम् आम्
तत्र माधुर्य
मधुररसः
भवति जले जल जलीयपरमाणु अपि मधुररसः भवति अपि च एषः मधुररसः नित्यः
नित्यः
नित्यः अस्ति अपि तत्र अनित्यपदार्थः तत्र जलस्य नाम यत् सरोवरे वा भवति तत् जलम् अनित्यं जलम् अस्ति सरोवरे
नित्य अनित्यगतम् अनित्यम् इत्युक्ते अनित्ये यः गुणः वर्तते सः अनित्य यदा सरोवरजले
नाम तत्र जल यत् जलं तत्र सरोवरे अस्ति तज्जलम् अनित्यम् इति स्वीकुर्मः तर्हि तस्मिन् विद्यमानः तत्र रसः अपि अनित्यः नाम तत्र जलस्य नाशः यदा भवति तदा तस्मिन् विद्यमानः गुणः यः तस्य अपि नाशः भवति अस्तु समीचीनं धन्यवादः भगिनि अग्रे सरामः चन्द्रमती भगिनी नमस्कारः विमला भगिनी नमस्कारः उषा भगिनी
नमस्कारः
विमला भगिनी प्रश्नः
आं महोदय अत्र पाकजम् इत्युक्ते यत्किमपि तेजसः संयोगेन जायते तदेव पाकजम्
अग्रे अग्रे तत्र अग्रे विवरणं दत्तमस्ति
अस्तु
गतवर्गे पठितवन्तः किन्तु केवलं तत्र सूक्ष्मरीत्या न तत्र केवलं तत्र एकवारं तस्य विवरणं भवेत् इति कृत्वा तत्र उक्तवन्तः किन्तु इदानीं तत्र अस्मिन् परिच्छेदे एतद् एषः एव विषयः
अत्र जलादौ तत् पाकजं न पाकेन जायते इत्युक्ते तत् जले यत् रसमस्ति तत् अपाकजं किम्
आम् सत्यम् इति अस्ति भगिनि सत् समीचीनं तदेव अस्ति
महोदय धन्यवादः
तदेव अस्ति भगिनि अस्तु समीचीनम् अस्तु तर्हि तत्र
आचार्य सरोवरे यद् नासीत् तस्य उदाहरणम् इदानीं स्वीकृतवन्तः अनित्यस्य कृते परन्तु सरोवरजले अपि परमाणवः भवन्ति ते तु नित्यः भवन्ति
परमाणौ यः रसः अस्ति सः तु नित्यः किन्तु तत्र तत्र पुस्तके परमाणवः सन्ति खलु पुस्तकस्य पुस्तकं नित्यपदार्थः वा अनित्यपदार्थः वा
अनित्यम्
तथैव जलमपि खलु खलु नाम तत्र पुस्तके नीलरूपमस्ति चेत् यदा पुस्तकस्य नाशः भवति तदा नीलरूपस्य अपि नाशः भवति खलु तथैव अत्रापि तदेव चिन्तनं तत्र जलं नाम जलपरमाणवः ये सन्ति तेषां नाशः न भवति किन्तु तत्र जलस्य निर्माणं नाम तत्र द्वयणुकं त्रयणुकम् एतत् स्वीकृत्य एव तत्र जलस्य निर्माणं भवति खलु तत्र तत्र अवयवाः सन्ति इति कृत्वा अनित्यम् इति स्वीकुर्मः खलु अतः तत्र यदि जलस्य परिवर्तनम् अन्यत् रूपे भवति अन्य तत्र जलस्य अन्यत् रूपं यदा भवति तदा रसः नश्यति यतोहि तत्र पूर्वं यस् यदासीत् नाम तत्र जलम् इदानीं स्वीकुर्मः यथा पुस्तकं यथा तथैव जलमपि तावदेव
तर्हि अर्थः परमाणूनामपि नाशः भवति वा
यथा पुस्तके परमाणवः सन्ति तेषां नाशः न भवति किन्तु पुस्तकस्य नाशः भवति खलु नाम यत् पुस्तकम् इति वदामः तद् न तिष्ठति यद्यपि परमाणवः तिष्ठन्ति खलु
परन्तु परमाणवः तेषां परिवर्तनं भवति वा ते तथैव भवन्ति
तथैव न न परमाणव तेषां परिवर्तनं न भवति नाम यदा तत्र घटः अस्ति इदानीं तत्र तस्य घटस्य नाशः भवति तदा किं पार्थिवपरमाणवः ते न सन्ति इति वा ते सन्ति एव किन्तु घटः इदानीं नास्ति खलु यदा घटः नास्ति तदा घटे विद्यमाननीलरूपम् अस्ति इति वक्तुं शक्नुमः वा यदि आश्रय एव नास्ति तदा न न रूपम् अस्ति इति वक्तुं शक्नुमः वा घटस्य खण्डाः सन्ति खण्डेषु विद्यमानरूपं तत्तु अस्ति किन्तु घटे विद्यमानं यत् रूपम् अस्ति तत्तु नास्ति खलु यतः यतोहि घटः एव नास्ति
परन्तु यदि पुस्तकस्य वयं किं तेजसा यथा
तत् भिन्नं तद् भिन्नम् इदानीं तेजसा न न केवलं तत्र नित्ये यः गुणः अस्ति सः नित्यः अत्र अपि अनित्ये यः गुणः अस्ति सः गुणः तु अनित्यः एतत्तु स्वीकरोति अङ्गीकरोति खलु
अहं चिन्तितवती अग्निना यत् नाशः भवति पुस्तकस्य तदा तु परमाणवः अपि न भवन्ति
न यया रीत्या नाशः भवति सा तु न वार्ता खलु भवति चेत् गुणस्य नाशः आश्रयः नास्ति चेत् तत्र आदेयस्य अपि नाशः भवेत् खलु यतोहि आदेयस्य आदेयः कथं भवति आश्रयं विना तावत् समीचीनं अस्तु तर्हि तत्र अग्रे तत्र विमला भगिनी भवती एव अग्रे पठतु तर्हि तत्र चतुर्णां विशेषमाः इति
आं महोदय नमस्कारः एकनिमेषः चतुर्णाम् इति कुत्र अस्ति महोदय
अत्र भगिनि तत्र चतुर्णां विशेषमाः
चतुर्णां विशेषमाः रूपादिचतुष्टयम् इत्यादिना पृथिव्यां पाकजं पाकः तेजः संयोगः तेन जायते आतपे स्थापिते नारिकेलशकले पूर्वरूपादिनाशः अन्येषां च उत्पत्तिः तेजःसंयोगादेव
तावत्पर्यन्तं
चतुर्णां विशेषमत्र उच्यन्ते रूपादिचतुष्टयम् इत्युक्ते रूपरसगन्ध स्पर्श इति चतुर्णां गुणानां विषयमत्र उच्यते अस्तु पृथिव्यां किं विशेषम् इत्युक्ते पाकजम् इति उक्तम् पाकः तेजसः संयोगेन पाकः जायते यथा तु उदाहरणं
पाकः इत्युक्ते तेजः संयोगः खलु
तदेव अत्र उदाहरणमस्ति
पाकज इत्युक्ते
पाकेन जातः पाकेन सम्भवः पाकेन ओ अस्तु पाकेन सम्भव इति इत्युक्ते पाक संयोगः किं महोदय तेजसंयोगः
तेजसंयोग पृथिव्यासः संयोगः वा इति किमपि तत्र तेजसः अन्येन पदार्थेन संयोगः यदा भवति
अस्तु तत्
सः पाकः तेन यज्जायते तदस्ति पाकजम्
अस्तु
नाम पाकः अस्ति कारणं पाकजम् अस्ति कार्यम्
पाकः अस्ति कारणं पाकजं अस्तु उदाहरणमस्ति नारिकेलशकलस्य आतपे यदा स्थापयामः किञ्चित् समयानन्तरं तस्य पूर्वरूपनाशः भवति पूर्वरूपस्य नाशः भवति
अपि च
नाशः भवति अपि च अन्यरूप उत्पत्तिः भवति तत्तेजः संयोगः
तर्हि रूपं तत्र नारिकेलशकले यत् रूपम् अस्ति तद् रूपं तु अनित्यम्
अस्तु रूपम् अनित्यं
तस्य नाशः अभवत् अपि नूतनरूपम् उत्पन्नम् अस्ति तर्हि तत्र नूतनरूपं यद् नारिकेलशकले अस्ति तद् रूपम् अस्ति पाकजं यतोहि पाकेन जन्यम् अस्ति अपि तथैव रसः अपि यः रसः नारिकेलशकले आसीत् पूर्वं तस्य नाशः अभवत्, अपि तर्हि तद् अनित्यमस्ति, अपि नूतनरसः अपि
उत्पन्नः भवति, तद् पाकजमस्ति,
पाकजः अस्ति, अतः तथैव गन्धः स्पर्शः अपि
तथैव गन्धस्पर्शयोः तथा एव भवति, अस्तु
भवति. अग्रे अन्यत्र,
अन्यत्र जलादौ तत् अपाकजं न पाकेन जायते,
तत् अपाकजं नाम
जले इत्युक्ते जले जल वायु पृथिवी न एतत् पृथिव्याः उक्तं पृथिवी जल तेजवायुः हा वायु तेषु तत् जल अपाकजं न पाकेन जायते, यत्किमपि अस्ति तत् पाकेन न जायते इति कृत्वा तत् अपाकजमिति उक्तम्.
उक्तं नाम तत्र जले उदाहरणार्थं जले रसः भवति, रसः मधुररसः इति उक्तं, तत्र मधुररसः तथैव तिष्ठति, तत्र पाकेन न जायते मधुररसः,
न परिवर्तनं जायते अपि
अपि न परिवर्तनं तस्य जायते इति अस्ति, किन्तु तद् नित्यमपि भवितुम् अर्हति अनित्यमपि भवितुम् अर्हति.
अस्तु, वक्ष्यमाणप्रकारेण कारणगुणेभ्यः जायते इत्युक्ते अग्रे उच्यते इति वक्ष्यमाणप्रकारेण इति कारणगुणेभ्यः जायते, कारणगुणेभ्यः यस्य कारणं यदस्ति इति भाति भवता
विषयः अस्ति अत्र गुणस्य विषयः नाम तत्र गुणः गुणस्य आश्रयः भवति नाम तत्र घटः इति स्वीकुर्मः घटस्य कारणमस्ति कपालः,
कपालः आम्
अपि घटे तत्र रक्तवर्णः अस्ति इति चिन्तयतु
तर्हि कपाले अपि भवेत्
हा इति वार्ता अस्ति समीचीनं भगिनि हा नाम एतं रक्तरूपं प्रति तस्य उत्पत्तिः कथम् अभवत् इत्युक्ते
कपाले
कारणगुणेभ्यः कारणं घटस्य कारणमस्ति कपालः कपाले विद्यमानः गुणः रक्तः तर्हि गुणात् रक्तगुणात् एतद् रक्तगुणम् उत्पन्नम्
अस्तु कारणात् कार्यस्य गुणमुत्पन्नं
कारणगुणात्
कार्यगुणमपि उत्पन्नं
उत्पन्नः इति अतः एव तत्र कारणगुणेभ्यः
जायते
कार्यगुणः जायते
जायते. तत्रैव जलादौ नित्ये परमाणौ नित्ये परमाणौ रूपादि नित्यम् इत्युक्ते जलादौ ये परमाणौ सन्ति नित्यपरमाणौ सन्ति तेषु परमाणुषु रूप इत्यादि गुणाः नित्यत्वेन सन्ति. यतोहि परमाणुः नित्यप्रमाणः
तर्हि जले तत्र रूपमस्ति वा जले
अभास्वरशुक्लरूपमस्ति इति
अस्माभिः अभास्वरशुक्लरूपमस्ति रसः अपि अस्ति गन्धः
यदि तस्मिन् पृथिव्याः मिश्रणम् अभवत् तर्हि गन्धः अस्ति
किन्तु तस्य विशेषगुणः नाम तत्र समयसम्बन्धिन नास्ति जले स्पर्शः
शीतस्पर्शः
अतः तत्र त्रयगुणत्रयं तत्र नित्यरूपेण नित्य भवन्ति जलपरमाणौ
अस्तु तेषां परमाणूनां नित्यत्वम् अस्ति ते नित्य नित्याः सन्ति
नित्यपदार्थाः सन्ति
परमाणुः नित्यपदार्थः
नित्यपदार्थः न्यायशास्त्रे अतः तेषु विद्यमानः तत्र जलीयपरमाणुः इति स्वीकुर्मश्चेत् तस्मिन् विद्यमानः रूपं रसः अपि स्पर्शः अपि नित्यः तत्र
अस्तु तत् नित्यमस्ति अस्तु तेषु विद्यमानः अस्तु अपि च अनित्य ज्वणुकादो अनित्यम् इत्युक्ते ज्वणुकादि तत् पश्चात् सर्वम् अनित्यं केवलं परमाणु एकः अस्ति चेदेव नित्यं नित्यं हा अन्ये सर्वे अनित्याः अत्र च जलादौ रूपादिचतुष्टय असम्भवेन यथा सम्भवमेव ग्राह्यम् विस्तरः अन्यत् इत्युक्ते जलादौ रूपादिचतुष्टय एतेषाम् असम्भवेन इति कथं महोदय
चतुष्टयमपि भवति इति नास्ति यथा पृथिव्यां चतुष्टयमपि भवति किन्तु चतुष्टयम् अस्ति सर्वे सदस्याः तत्र भवेयुः असम्भवम् केचन सन्ति किन्तु सर्वे सर्वदा न भवन्ति तर्हि तत्र नाम जले गन्धः न भवति
तर्हि यथा सम्भवमेव ग्राह्यम् तदेव अस्ति
नाम वयम् उक्तवन्तः नित्यम् इति किन्तु गन्धः जले कदापि न भवति चेत् वयं न वक्तुं शक्नुमः आमामां परमाणुः नित्य अतः तत्र गन्धः अपि तस्मिन् नित्यगुणः इति तद् न वक्तुं शक्नुमः नास्ति एव अतः यत्र सम्भवः अस्ति तदा वयं दृष्ट्वा अस्तु एषः गुणः अस्मिन् भवति अतः तत्र ओ अपि पदार्थः नित्यः अस्ति अस्तु अत्र नित्यगुणः अस्ति इति अतः तत्र यथा सम्भवम् एवम् एव यथा सम्भवम् एव
इति ग्राह्यं
सम्भवम् एवमेव ग्राह्यं तथा तथा एव ग्राह्यम् नाम उक्तवन्तः नित्यगतं नित्यम् अनित्यगतम् अनित्यं किन्तु सर्वत्र भवति इति वार्ता न यत्र यत्र भवति तत्र तत्र नित्यपदार्थे भवति यत्र यत्र भवति नित्यपदार्थे तत्र नित्यः यत्र यत्र अनित्यपदार्थे भवति तत्र अनित्यः विस्तरः अन्यत्र नाम विस्तरेण तद् अग्रे द्रक्ष्यामः अस्तु समीचीनम् अस्तु एतावत् समीचीनं भगिनि
समीचीनमस्ति
कोऽपि प्रश्नः अस्मिन् विषये यतोहि इदानीं तत्र नूतनविषयः आरप्स्यते कोऽपि प्रश्नः अस्मिन् विषये तत्र रसरूपरसगन्धस्पर्शः तेषां लक्षणवाक्यं पठितवन्तः अपि तेषां तत्र तत्र त्रैविध्यम् एतत् सर्वं यद् पूर्वम् आसीत् लक्षणवाक्यानन्तरं तादृशविवरणमपि अत्र दत्तमस्ति तर्हि इदानीं प्रश्नः नास्ति चेत् अग्रे सरामः इदानीं तत्र
महोदय परमाणोः किं गुणं नित्यमस्ति तदेव नित्यं द्वयोः किं भवति अनित्यं भवति
सत्यं भगिनि तथैव तत्र नाम उदाहरणार्थं तत्र जले अनित्यं हा जले जलपरमाणौ मधुररसः अस्ति
अभासुरशुक्लरूपम् अस्ति तद् नित्यं
नित्यं हा मधुररसः अस्ति
वर्णः जले अस्ति चेत् तद् अनित्यमेव
अनित्यं सत्यं भगिनि हा इति अस्ति तत् समीचीनं नीलरूपं जले अस्ति चेत् तद् अनित्यमस्ति किन्तु हा अभासुरशुक्लरूपम् अस्ति तत्तु नित्यमस्ति जलपरमाणु इति अस्ति समीचीनं भगिनि हा उत्तमम् अन्य कोऽपि प्रश्नः अस्तु तर्हि अग्रे सरामः तर्हि तत्र उषा भगिनी अग्रे पठति वा
महोदय अन्वयसहचारः अत्र महोदय
तदपि अनित्यमेव
एकनिमिषं भगिनि चन्द्रपति भगिनी वदतु
पाकजेन रूपभेदः किमपि भवति तदपि अनित्यमेव
आं भगिनि यतोहि पाकजम् इति अस्ति चेदेव नाम नित्यः इति नित्यम् इति न्यायशास्त्रे यस्य जननं नास्ति अपि तत्र नाशः अपि नास्ति खलु
जन्यते तद् नश्यते
हा इति एव तेषां मतम् अतः पाकजम् इति यदि वदामः तद् अनित्यम् इति जानीमः यतोहि पाकेन जायते इति समीचीनम्
अस्तु
अस्तु अस्तु उषा भगिनी
महोदय अन्वयसहचारः इति पदार्थनिरूपणम् अन्वयसहचारः अत्र इदं वक्तव्यं शास्त्रे अस्मिन् कार्यकारणभावः तत्र तत्र चिन्त्यते अस्माभिः अपि कारणत्वनिकषाः आलोचिताः ग्रन्थकारेण समवायी असमवायी निमित्तकारणता कारणताभेदात् कारणताप्रकाराः अग्रे प्रदर्श्यन्ते प्रदर्शयिष्यन्ते तस्मिन् विचारे यस्मिन् सति कार्यं भवति यस्मिन् असति कार्यं नैव भवति तत् तस्य कारणम् इति अवधार्यते निश्चीयते ततः कदाचित् कारणदर्शने कार्यमात्रस्य च दर्शने कारणम् अदृश्यमपि तत्र अस्ति इति अवधार्यते ततः कदाचित् कारण अदर्शने कार्यमात्रस्य च दर्शने कारणम् अदृश्यम् अपि तत्र अस्ति इति अवधार्यते यथा अकस्मात् नद्यां पूरः भवति चेत् अप्रत्यक्षापि वृष्टिः ऊर्ध्वदेशे क्वचित् अभूत् संवेर् ओके अस्ति इति क्वचित् अभूत् इति अवगच्छामः अस्तु अत्र इदं वक्तं शास्त्रे अस्मिन् कार्यकारणभावः लैक् रक्तरूप कपालः अस्ति चेत् रक्तरूपघटः सिध्यति इति कृते कार्यकारणभावः तत्र तत्र चिन्त्यते
अस्माभिः तत्र घटः अपि कपालः इति चिन्तितवन्तः खलु तत्र कपालः कारणमस्ति घटः कार्यमस्ति अपि तत्र घटे तत्र नीलरूपमस्ति चेत् तत्र नीलरूपं प्रति न नीलरूपं घटे अस्ति चेत् नीलरूपं प्रति घटः कारणम्
ओ आम् नीलरूपं प्रति घटः कारणं
कारणं नाम तत्र घटः नास्ति चेत् तत्र नीलरूपं न
नीलरूपम् अपि नास्ति
नास्ति हा अपि तत्र घटः अस्ति चेत् तत्र कपालः अपि कारणं तदनन्तरं तत्र किं घट कपालसंयोगः अपि कारणं खलु नाम कपालसंयोगः न भवति चेत् घटः न
घटः भवति
अपि तत्र तत्र चक्रः चक्रमपि भवेत्
दण्डः अपि भवेत्
कुलालः अपि भवेत्
कुलालः आम् महोदय
तत्र जलमपि भवेत् अतः तत्र अनेकानि कारणानि सन्ति वयं किञ्चित् परिशीलितवन्तः कार्यकारणभावः इदानीम्
अस्माभिः अपि कारणत्वनिकषाः आलोचिताः कारणत्व कण्डिशन्स् निकषा
निकषाः अंशाः नाम कारणत्वनिकषाः कारणं किं कोऽपि पदार्थः अस्ति अथवा किमपि कार्यमस्ति तर्हि तस्य कारणं किम् इति इदानीं वयं चिन्तयितुम् इच्छामः एतस्य कारणं किम् अस्तु कोऽपि वदति अस्तु एतदेव कारणं तदा कारणम् इति यदि वदति तदा किं प्रदर्शनीयमस्ति तत्र एतदेव अन्यत् एव कारणम् इति वयम् अङ्गीकर्तुम् इच्छामः किन्तु तत्र निकषत्रयं भवेत् तत्र निकषत्रयं स्मरति वा नो चेत्
समवायी असमवायी अपि च
तत्तु तत्र कारणस्य भेदः प्रभेदः कारणं किं कारणमिति तस्य निर्धारः कथं भवति इति नाम तत्र
कार्यस्य प्रति महोदय
कार्याधिकरणे भवेत् तेन सर्वदा भवेत्
भवेत् जस्ट् दट् पूर्वक्षणे
निकषत्रयपूर्वक्षणे
अपि भवेत्
अस्तु वदतु भगिनि तर्हि
कार्यकरणे कार्यादिकरणे भवेत् अपि च सर्वदा भवेत् अधिकरणे सर्वदा भवेत् अपि च पूर्वक्षणे अपि भवेत् कार्याधिकरणे भवेत् इति
नाम तत्र यदि घटः अत्र उत्पद्यते कुलालः अन्यत्र अस्ति चेत् तत्र कुलालः कारणम् इति वक्तुं शक्नुमः वा न नाम कारणं कार्यस्य अधिकरणं यदस्ति तस्मिन्नेव कार्यमपि भवेत् खलु
तर्हि सर्वदा भवेत् अपि
समानाधिकरणं नाम कारणं कार्यं तेषां समानाधिकरणम् अधिकरणं तत्र समान अधिकरणं भवेत् हा इति समानाधिकरण्यं भवेत् तयोः कार्यकारणयोः समानाधिकरण्यं भवेत् एकस्मिन्नेव अधिकरणे कार्यमपि भवेत् कारणमपि भवेत् इति प्रथमनिकषः द्वितीयनिकषः कः
कार्याधिकरणे
नाम तत्र कोऽपि तत्र घटस्य निर्माणस्थले कोऽपि आगच्छति अद्य आगच्छति श्वः न आगच्छति किन्तु घटस्य निर्माणं प्रतिदिनं भवति किं सः तत्र घटोत्पत्तेः कारणं भवितुम् अर्हति वा अद्य घटस्य निर्माणं भवति किन्तु सः नास्ति सः तु तत्र कार्य तत्र कारणम् इति न चिन्तयितुं
शक्नुमः
अपि पुस्तके तत्र समानाधिकरणस्य अन्यत् उदाहरणं दत्तमस्ति नाम तत्र हस्ते मलमस्ति तत्र मलनिवारणार्थं वयं तत्र जलं जलस्य जलं स्थापितुम् इच्छामः अन्यस्मिन् हस्ते यदि जलं स्थापयामः किं प्रथमे हस्ते यत् मलमस्ति तद् अपगच्छति वा न अतः तत्र यस्मिन् हस्ते मलमस्ति तस्मिन्नेव हस्ते जलं नाम तत्र जलं कारणमस्ति मलनिवारणमस्ति कार्यम् अतः तत्र यस्मिन् अधिकरणे हस्ते मलनिवारणम् अभवत् तस्मिन्नेव हस्ते जलमपि भवेत् अतः तत्र अधिकरणं समानम् अपि सर्वदा भवेत्
भवेत् अपि च पूर्वक्षणमपि
नाम तत्र चक्रे तत्र पिपीलिका अद्य अस्ति तर्हि पिपीलिका घटनिर्माणे निर्माणस्य कारणमिति न चिन्तयितुं शक्नुमः अतः तत्र एतादृशचिन्तनं तेषां तत्र तर्हि समानाधिकरणं कार्यस्य अधिकरणे कारणं भवेत् कारणम् अधिकरणे सर्वदा भवेत्
अपि च पूर्वक्षणमपि
पूर्वक्षणमपि भवेत् इति तदा एव तत्र कारणम् इति अङ्गीकर्तुं शक्नुमः अतः एव निकषाः आलोचिताः अस्तु इदानीम् अग्रे ग्रन्थकारेण
समवायि असमवायि निमित्तकारणताभेदात् कारणताप्रकाराः अग्रे प्रदर्शिष्यन्ते प्रदर्शयिष्यन्ते सो अग्रे वयं द्रष्टुं शक्नुमः समवायि असमवायि निमित्तकारणभेदात् कारणताप्रकाराः ओके कारणताप्रकाराः अग्रे वयं द्रष्टुं शक्नुमः प्रकाराः समवायिकारणम् असमवायिकारणं निमित्तकारणभेदात् उत्पद्यते यः प्रकारः
अथवा कारणत्रयम् इति वयं चिन्तयामः भेदः कः नाम तत्र समवायिकारणम् असमवायि
कारणं
निमित्तकारणं
वेदत्रयेण
तत्र अग्रे वयं द्रक्ष्यामः इति अस्ति. समीचीनम् अस्तु भगिनि. हा अस्तु, इदानीम् अग्रे तत्र समीचीनं भगिनि. तर्हि तत्र अग्रे शोभा भगिनी अग्रे पठति वा?
महोदय, तस्मिन् विचारे तस्मिन् विचारे यस्मिन् सति कार्यं भवति, तस्मिन् विचारे यस्मिन् सति कार्यं भवति, यस्मिन् असति कार्यं नैव भवति, तत् तस्य कारणम् इति अवधार्यते, इत्युक्ते निश्चीयते. ततः कदाचित् कारण अदर्शने
तस्मिन् विचारे तत्र एकवारं पठित्वा वदतु भगिनि तर्हि. अत्र अस्तु, तत्र एतावत्
इदानीं यत् पठितं तत् उक्त्वा अग्रे पठनीयं वा?
न न, तस्मिन् विचारे इति आरभ्य एकवारम् अवगच्छामः इति तावत् पर्यन्तं पठित्वा.
तस्मिन् विचारे यस्मिन् सति कार्यं भवति, तत्र यस्मिन् सति
एकवारं पूर्णतया पठतु भगिनि, तदनन्तरम् एकमेकं वाक्यं स्वीकृत्य चिन्तयामि.
अस्तु, अहं चिन्तितवती भवान् एकं वाक्यं नीत्वा वदतु
इति. क्षम्यतां,
ततः कदाचित् कारण अदर्शने कार्यमात्रस्य च दर्शने, कारण अदर्शने कार्यमात्रस्य च दर्शने कारणं किम् उद्दश अदृश्यं कारणम् अदृश्यम् अपि तत्र अस्ति इति अवधार्यते. यथा अकस्मात् नद्यां पूरः भवति चेत् अप्रत्यक्ष अपि वृष्टिः ऊर्ध्वदेशे क्वचित् अभूत् इति अवगच्छामः. अस्तु, इदानीं किं तत्र मम पठनात् पूर्वं यत् दृष्टवन्तः इत्युक्ते शास्त्रे अस्मिन् कार्यकारणभावः तत्र तत्र चिन्त्यते, अस्माभिः अपि कारणत्वनिकषाः आलोचिताः इति इदानीं चर्चितम्. अपि च ग्रन्थकारेण समवाय असमवाय निमित्त असमवायि निमित्त कारणता भेदात् इत्युक्ते तेषां भेदात् कारणता प्रकाराः अग्रे प्रदर्शयिष्यन्ते. तस्मिन् विचारे इदानीं यस्मिन् सति कार्यं भवति इत्युक्ते तत्र यस्मिन्
विचारे
समवाय निमित्त कारणम् इति खलु
विचारे
यस्मिन् सति कार्यं भवति, यस्मिन् असति कार्यं नैव भवति, तत् तस्य कारणम् इति अवधार्यते. अस्तु, यत् कारणम् अस्ति सति कार्यं भवति, यत् यदि नास्ति तदा कार्यं न भवति इति तस्य कारणम् इति अवधार्यते. तेन कारणेन एव कार्यं भवति, नास्ति चेत् न भवति इति. हा,
उदाहरणं वदतु तर्हि.
हा, उदाहरणम् इत्युक्ते इदानीं घटस्य विषये तत्र बहवः कारणाः सन्ति. इदानीं निकषात्रयम्
एकमेकं कारणं स्वीकरोतु.
अस्तु,
नाम कारणनिकषः मास्तु, नाम घटस्य कारणं.
घटस्य तत्र किं वृष्टिः भवेत्, अपि च जलं भवेत्.
एकमेव एकम् उदाहरणं स्वीकरोतु.
एकमेव, अस्तु. तत्र मृत्तिः इति वदामः खलु महोदय, तत्र
क्लेशः
कपालः. अस्तु, कपालः भवेत् तद् कारणं भवति. तद् सति इत्युक्ते कपाले सति कार्यं भवति, कपाले असति कार्यं नैव भवति इति घटस्य विषये वक्तुं शक्नुमः.
तत्र सति इत्युक्ते
तस्य उपस्थितिः अस्ति चेत्, अस्ति नाम तत्र सति सप्तमी यस्मिन् सति
सति सप्तमी
अस्ति तथा एव यस्मिन् असति अपि सति सप्तमी इत्युक्ते असति इत्युक्ते तस्य उपस्थितिः नास्ति इति कार्यं न भवति इति
तर्हि कपालस्य उदाहरणे कपालः घटः तत्र कपाले
सति कार्यं भवति इत्युक्ते कपाले सति घटं भवति
नाम कपालः अस्ति चेत् घटः भवितुम् अर्हति
कपालः नास्ति चेत् घटः भवितुं न अर्हति
हा इति भवति तादृशी स्थितिः अस्ति चेत् तदा वयं
कारणम् इति
तत् तस्य कारणम् इति अवधार्यते
अवधारणं निश्चीयते इति
कारणं
तत्र निश्चयं कर्तुं शक्नुमः
हा यस्मिन् सति कार्यं भवति नाम यस्य उपस्थितिः यदा अस्ति तदा कार्यं भवति अपि यस्य उपस्थितिः नास्ति तदा कार्यं न भवति तादृशी स्थितिः भवति चेत् तदा वयं वक्तुं शक्नुमः अस्तु एतत् कार्यं प्रति कारणम् अस्ति खलु
महोदय
हा नाम तत्र तस्य उपस्थितिः भवति चेत् कार्यस्य उत्पत्तिः भवति तस्य उपस्थितिः नास्ति चेत् कार्यस्य उत्पत्तिः न भवति चेत् ओ अस्तु तर्हि तत् कारणम् इति निश्चेतुं शक्नुमः
आम् अग्रे ततः कदाचित् कारण अदर्शने कार्यमात्रस्य च दर्शने कारणम् अदृश्यम् अपि तत्र अस्ति इति अवधार्यते हा इत्युक्ते इदानीं पुनः घटस्य उदाहरणं स्वीकृत्य यदा घटं वयं पश्यामः तत्र कारणानि तु न पश्यामः एव किन्तु अस्माकम् अवगमनम् अस्ति भवति यत् यदि घटः कारितः चेत् तस्य कारणानि सन्ति आसन् एव इति अवधार्यते इति कदाचित् कारणदर्शनं भवति कदाचित् न भवति कारणं न पश्यामः अथवा न अस्ति तत्र यतोहि
नास्ति तत्र इति न तत्र न दृश्यते
कारणं किन्तु तत्र कारणं कदाचित् दृश्यते इति कदा भवति इति चिन्तितवती तथा कदाचित् कारणदर्शने
नाम तत्र सूक्ष्मकारणं भवितुमर्हति उदाहरणमपि अग्रे एव दत्तमस्ति किन्तु किन्तु तत्र प्रथमतया कारणं किम् इति निश्चितवन्तः वयं नाम यस्मिन् सति कार्यं भवति यस्मिन् असति कार्यं न भवति चेत् तत् कारणम् इति
स्वीकारणम्
अङ्गीकर्तुं शक्नुमः तर्हि तत्र एतेन चिन्तनेन वयं कपालः घटं प्रति कारणम् इति निश्चेतुं शक्नुमः इदानीं कार्यस्य कारणं किम् इति यदि जानीमः तदा किं वक्तुं शक्नुमः वयं ततः कदाचित् ततः नाम एतादृशचिन्तनस्य
अनन्तरं
किं कर्तुं शक्नुमः कदाचित्
कारण अदर्शने
कार्यमात्रस्य
इत्युक्ते घटस्य दर्शनेन अपि च घटस्य उत्पत्तेः कारणस्य अदर्शनेन अपि कारणं तत्र अस्ति इति तु अवगच्छामः
नाम तत्र कारणम् अस्ति कारणं तु अस्ति यतोहि कारणं विना कार्यं
न भवति इति तु
इति जानीमः इदानीं अतः उदाहरणं
यथा अकस्मात् नद्यां पूरः भवति चेत् अप्रत्यक्षापि
नद्यां पूरः नाम
नद्यां पूरः इत्युक्ते तत्र प्रवाहः इत्युक्ते
जलं
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 जलपूरितः नदी
इति जलेन पूरिता अस्ति
जलेन पूरिता नदी हा
अस्ति
इति यदा तत्र वृष्टिः भवति
तत्र पूरिता अस्ति नदी पूरिता
अस्ति इदानीं वयं पश्यामः अकस्मात् एव नदी
तत्र कार्यं किमस्ति कार्यं किमस्ति तत्र
कार्यं नद्याः पूरणम्
इति
अपि च यदि नद्याः पूरणं पश्यामः तदा तस्य कारणं वृष्टिः इति अनुमानं कर्तुं शक्नुमः न दृष्ट्वा अपि अप्रत्यक्ष अपि वयं न दृष्टवन्तः वृष्टिः अभवत् इति
वृष्टिः इति स्त्रीलिङ्गे अस्ति तर्हि अप्रत्यक्षा
अप्रत्यक्षापि वृष्टिः ऊर्ध्वदेशे क्वचित् इत्युक्ते ऊर्ध्व इत्युक्ते तत्र तस्मात् किम् ऊर्ध्व इत्युक्ते पूर्वं
नाम नद्याः तत्र मार्गः भवति खलु
हा तस्य
ऊर्ध्वदेशः नाम पूर्व
यस्मात् नदी आगता
हा मध्ये तत्र
हा इत्युक्ते यस्मात् इति नास्ति तत्र यत्र यत्र प्रवहति तत्र कुत्रचित् ऊर्ध्वदेशे वृष्टिः अभवत् इति ज्ञातुं शक्नुमः
इति हा कुत्रचित् मध्ये तत्र ऊर्ध्वदेशे हा तत्र वृष्टिः आसीत् अभवत् क्वचित् क्वचित् नाम कुत्रचित् अभूत् इति अवगच्छामः यद्यपि वयं तत्र वृष्टिः अभवत् इति तत्र वयं न पश्यामः किन्तु कुत्रापि वृष्टिः आसीत् तर्हि तत्र वृष्टिः अप्रत्यक्षा अस्ति चक्षुषा वयं न तस्य ज्ञानं न तस्याः ज्ञानं न प्राप्तवन्तः तदापि वयं वक्तुं शक्नुमः न अस्तु तत्र वृष्टिः कुत्रापि अभवत् अतः तत्र यस्मिन् सति कार्यं भवति यस्मिन् असति कार्यं नैव भवति इति कार्यकारण
वृष्टौ सति नदी नद्यां पूरः भवति वृष्टौ असति नद्यां पूरः न भवति इति कार्यकारणस्य वाक्यं भवति तत्र
सम्बन्धः तत्र दृष्टेन इति अस्ति समीचीनं भगिनि अस्तु उत्तमम् अस्तु अग्रे सरामः तर्हि धन्यवादः भगिनि अस्तु अग्रे तत्र योगेन्द्रमहोदय अग्रे पठितुम् इच्छति वा
अस्तु महोदय तथैव च पूर्वोक्तानां वक्ष्यमाणानां च केषाञ्चित् गुणानां द्रव्यविशेषजन्यत्वं निश्चिनुमः यथा गन्धः पृथिव्यां सत्यां भवति पृथिवी न भवति चेत् गन्धः न भवति इति गन्धः पृथिवी मात्रजन्यः इति अवगम्यते पृथिवी सत्त्वे गन्धः इति पृथिवी गन्धयोः अन्वयम् आदय सत्ताम् आदय विद्यमानत्वम् आदय चिन्त्यते
इति
आदाय चिन्त्यते इति अयम् अन्वयसहचारः इति व्यवह्रियते सहचारः सामानादिकरणीयं भावयोः पृथिवीगन्धयोः सामानादिकरणीयम्
अस्तु
अतः तथैव च पूर्वोक्तानाम् इत्युक्ते उपरितने उक्तानां पक्ष्यमाणानां केषाञ्चित् गुणानां द्रव्य विशेषजन्यत्वं निश्चिनुमः द्रव्यविशेषजन्यत्वम् इत्युक्ते प्रायः यदा द्रव्यतः यः आगच्छति तत् यदा गन्धः अस्ति पृथिव्यां सति पृथ्वी अस्ति तदा एव भवति
नाम
अन्यथा न भवति इति द्रव्यविशेषजन्यत्वम्
हा तादृशम् अस्ति समीचीनं महोदय अत्र पूर्वोक्तानां पूर्वमुक्तानाम् अपि वक्ष्यमाणानाम् अग्रे वक्ष्यते तेषां केषाञ्चित् गुणानां किं निश्चिनुमः तथैव नाम द्रव्यविशेषजन्यत्वं नाम तत्र जन्यत्वं नाम तत्र कारणत्वं नाम तत्र एतद्द्रव्यं तत्र विशेषजन्यत्वं तस्य कारणमस्ति वा अथवा तत्र अन्यगुणः अस्ति गुणस्य कारणं किम् अस्ति इति तत् तादृशचिन्तनम् एतेन तत्र मार्गेण वयं कुर्मः अग्रे
कुर्मः
निश्चुनुमः इदानीं तत्र यथा
गन्धः पृथिव्यां सत्यां भवति पृथिवी न भवति चेत् गन्धः न भवति इति गन्धः पृथिवीमात्रजन्यः इति अवगम्यते अतः गन्धः यः अस्ति स पृथिवीजन्यः अस्ति यदा पृथिवी नास्ति तदा गन्धः न भवति
यत्र पृथिवी अस्ति तत्र गन्धः भवति अपि यत्र
पृथ्वी नास्ति
पृथिव्यां सत्यां भवति नाम गन्धः यत्र पृथ्वी अस्ति तत्र गन्धः अस्ति यत्र पृथ्वी नास्ति तत्र गन्धः न भवति
नास्ति न भवति
अतः गन्धः
पृथ्वी मात्रजन्यः
तत्र पृथ्वीजन्यः इति अवगच्छामः अपि पृथ्वी मात्रजन्यः नाम पृथ्वी नास्ति
पृथ्वी नास्ति चेत् न भवति गन्धः
हा पृथ्वी अस्ति चेत् भवति पृथ्वी नास्ति चेत् न भवति इति कृत्वा पृथ्वी मात्र जन्यः इति अवगम्यते अस्तु अग्रे
पृथिवी सत्त्वे गन्धः इति पृथिवी गन्धयोः अन्वयम् आदाय सत्ताम् आदाय विद्यमानत्वम् आदाय चिन्त्यते इति अयम् अन्वयसहचारः इति व्यव्रियते
तर्हि तत्र अत्र अन्वयसहचारः इति पदार्थनिरूपणम् इति एव उपशीर्षकः खलु
अन्वयसहचार
तर्हि तत्र अन्वयसहचारः इति पदमस्ति अन्वयसहचारः अन्वयसहचार इत्युक्ते किम् इति इदानीम् उक्तमस्ति तत्र पृथ्वी अपि गन्धः उदाहरणं पृथ्वीगन्धः उदाहरणं तत्र भवान् किम् उक्तवान् गन्धः पृथिव्यां सत्यां भवति खलु गन्धः पृथ्वी अस्ति चेत् गन्धः भवति नाम पृथ्वीसत्त्वे गन्धः
पृथ्वीसत्त्वे गन्धः इति पृथ्वीगन्धयोः अन्वयम्
अन्वयं नाम अन्वयं
सम्बन्धः पृथ्वीगन्धयोः सम्बन्धः
अन्वयम् आधाय सत्ताम् आधाय तत्र सत्तां नाम अस्ति इति एव उक्तं खलु नास्ति इति न उक्तम् अस्ति सत्ता सत्ता नाम अस्ति तद् तत्र अस्ति तत्र तत्र विद्यमानत्वं तद् तत्र वर्तते इति एव आदाय वयं चिन्तितवन्तः चिन्त्यते इति कृत्वा अयम् अन्वयसहचारः इति व्यवहारः भवति अन्वयसहचारः अन्वयसहचार नाम यत् यत्र एकमस्ति तदा अन्यदपि भवति चेत् तत्र वयं वदामः अत्र अन्वयसहचारः अस्ति यत्र पृथ्वी अस्ति तत्र गन्धः अपि अस्ति तर्हि अन्वयसहचारः एतदस्ति तदा द्वितीयमपि अस्ति अन्वयसहचारः विद्यमानत्वम् अस्ति इति एव तत्र वार्ता अतः अन्वयः व्यतिरेकसहचार तत्र किं भवति अग्रे आयति यत्र नास्ति अभावम् आदाय वयं तत्र चिन्तनं कुर्मः इदानीं भावः भावः नाम अस्ति इति कृत्वा चिन्तयामः इति तत्र अन्वयः यत्र भावः अस्ति सत्ताम् आदाय चिन्तनं भवति तत्र अन्वयः इति अन्वयसहचारः अग्रे महोदय सहचारः
सहचारः सामानादिकरणीयम्
हा सहचारः नाम यत्र एकमस्ति तत्र अन्यदपि अस्ति खलु तत्र वयम् उक्तवन्तः पृथ्वी अस्ति चेत् गन्धः भवति खलु तर्हि यत्र पृथ्वी अस्ति तत्र गन्धः अस्ति तर्हि तत्र समानादिकरणीयम् अस्ति वा तत्र
पृथ्वी अस्ति चेत् गन्धः अस्ति
तर्हि समानादिकरणम् अस्ति खलु तयोः
तयोः समानादिकरणम् अस्ति
नाम तत्र यत्र पृथ्वी अस्ति तत्र गन्धः अस्ति खलु अतः एव तत्र समान अधिकरणं तत्र गन्धः अपि पृथ्वी तयोः समान अधिकरणं किम् अस्ति
पृथ्वी अस्ति गन्धः अस्ति
हा तर्हि तयोः समानाधिकरणं किम् अस्ति
पृथ्वीत्वं
न पृथ्वी एव खलु
पृथ्वी एव
खलु अधिकरणं पृथ्वी एव खलु गन्धः केन सम्बन्धेन पृथिव्यम् अस्ति
समवायसम्बन्धेन
समवायसम्बन्धेन हा गुणः इति कृत्वा समवायसम्बन्धेन अस्ति पृथ्वी तस्मिन् पृथ्वी तस्यां केन सम्बन्धेन अस्ति सर्वे पदार्थाः स्वस्मिन् केन सम्बन्धेन भवन्ति
तादात्म्यसम्बन्धः
तत्र तादात्म्यसम्बन्धः अत्र समवायसम्बन्धः तावदेव तर्हि समानाधिकरणं प्राप्त समानाधिकरणम् अस्ति इति जानीमः अग्रे
अग्रे भावयोः पृथ्वीगन्धयोः समानाधिकरणीयं
हा तत्र भावयोः इत्युक्ते किम्
अस्ति इति
हा नाम भावपदार्थः अभावपदार्थः नास्ति भावपदार्थः पदार्थः अस्ति नाम तत्र वयं दृष्टवन्तः खलु तत्र पदार्थाः तत्र अभावः इति अस्ति अभावं विहाय अन्ये पदार्थाः भावपदार्थाः तत्र अस्ति 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 इति एव तत्र तत्र आकाशः अस्ति आकाशः भावपदार्थः गन्धः भावपदार्थः तर्हि भावयोः नाम भावपदार्थयोः
पृथ्वीगन्धयोः
भावपदार्थयोः विशेषणं पृथ्वीगन्धयोः इति विशेष्यं तयोः समानक्षमितं तयोः समानादिकरण्यम् अस्ति अतः नाम तयोः सहचारः अस्ति सहचारः इत्युक्ते समानादिकरण्यं भावयोः पृथ्वीगन्धयोः समानाधिकरण्यम् अस्ति अतः भावयोः पृथ्वीगन्धयोः सहचारः अस्ति कीदृशसहचारः अस्ति तयोः
समानाधिकरण्यम्
अन्वयसहचारः अस्ति तयोः अन्वयसहचारः अस्ति यत्र पृथ्वी अस्ति तत्र गन्धः भवति इति कृत्वा यत्र पृथ्वी अस्ति तत्र गन्धः अस्ति तर्हि भावपदार्थः अस्ति अस्ति सत्ता विद्यमानत्वम् उपयुज्य वयं चिन्तितवन्तः तत्र कारणभावः अस्ति तत्र अन्वयसहचारः समानादिकरण्यं तयोः अस्ति इति निश्चितः भवति तदा अन्वयसहचारः इति व्यवहारः भवति अन्वयसहचारः अस्तु प्रश्नः अस्मिन् विषये अन्वयसहचारः इति तस्मिन् विषये कोऽपि प्रश्नः
आचार्य भावयोः अर्थः भावयोः
भावपदार्थः भावपदार्थः
भावपदार्थः
पृथ्वी अभावः नास्ति खलु तत्र पृथ्वी अस्ति खलु पृथ्वी अस्ति पृथिव्याः अभावः इति वार्ता नास्ति खलु तत्र
भवति इति
वर्तते वर्तते इति कृत्वा भावपदार्थः भवति इति सत्यं भावपदार्थयोः भावयोः नाम भावपदार्थयोः
तथैव आचार्य नदी पूर नदी वृष्टि नदी पूरयोः अन्वयसहचारः अस्ति खलु
यथा वृष्टिः यदा भवति तदा नदी पूरितः नदी पूरिता भवति सत्यं सत्यं भगिनि तथैव एकम् अस्ति चेत् अन्यदपि यदा भवति तदा वयं वदामः अन्वयसहचारः भवति समीचीनं भगिनि यस्मिन् सति तत्र यस्मिन् सति कार्यम् इति एव तत्र अन्वयसहचारः यदा एकमस्ति तदा द्वितीयमपि भवति चेत् तत्र अन्वयसहचारः इति उच्यते अस्तु अग्रे सरामः तर्हि तत्र नरसिंहगिरि मध्ये अग्रे पठति वा
आम् व्यतिरेकसहचारः इति पदार्थनिरूपणम् यत्र पृथ्वी नास्ति तत्र गन्धोऽपि नास्ति इति चिन्तनम् अभाववादाय प्रवर्तते इति अयं व्यतिरेकसहचारः इति उच्यते व्यतिरेकौ अभावौ पृथ्वी पृथ्वी अभाव गन्ध अभावरूपौ तयोः विद्यमानत्वं समानाधिकरणं च आदाय इह चिन्त्यते इति अयं व्यतिरेकसहचारः एवं च पूर्वोक्तान्व अन्वयसहचारः व्यतिरेकसहचारश्च तयोः वर्तते ययोः वर्तते तयोः कार्यकारणभावः निश्चितो भवति अत्र नूतनपारिभाषिकशब्दः व्यतिरेकसहचारः इति यत्र पृथ्वी नास्ति तत्र गन्धोऽपि नास्ति इति चिन्तनम् यत्र यत्र पृथ्वी तत्र तत्र गन्धः इति वयं दृष्टवन्तः तादृशमेव यत्र यत्र पृथ्वी नास्ति तत्र तत्र गन्धः नास्ति इति चिन्तनम् अभावौ आदाय इत्युक्ते पृथिवी अभावः अस्ति चेत् गन्धाभावः आदाय
पृथिव्याः अभावः अस्ति चेत् पृथिव्याः अस्ति चेत् गन्धस्य अभावः अस्ति अभावः अस्ति इति अतः अभावम् आदाय तत्र अभावः इति विभक्तिका तत्र
अभावः अभावप्रथमः महोदय अभावः
हा कर्मपदमस्ति महोदय अभावौ आदाय तम् आदाय
अभावौ
द्विवचने
तत्र अभावौ आदाय यत् चिन्तनमस्ति तद् व्यतिरेकसहचारः अस्ति यत् भावम् आदाय चिन्तनमस्ति तत् उपरि एवं दृष्टवन्तः अन्वयसहचारः इति
हा अन्वयः समीचीनम् अन्वयस्थले तत्र भावपदार्थः व्यतिरेकस्थले अभावपदार्थः
व्यतिरेकौ व्यतिरेकौ अभावौ पृथ्वी अभाव गन्धाभावरूपौ तयोः विद्यमानत्वं समानाधिकरणं च आदाय इह चिन्त्यते इति अयं व्यतिरेकसहचारः अत्र समानाधिकरणं भवति पृथ्वी अभावस्य अनन्तरं गन्धाभावस्य अपि
नाम तत्र यत्र पृथ्वी नास्ति तत्र गन्धोऽपि नास्ति इति यदि वदामः तत्र किं किम् अस्ति यत्र
पृथिवी अभावः अस्ति अनन्तरं गन्धः अभावः अस्ति
हा यत्र पृथिवी अभावः अस्ति तत्र गन्धभावः अस्ति तर्हि तत्र यथा वयं पूर्वं दृष्टवन्तः तत्र यत्र पृथिवी अस्ति तत्र गन्धः अस्ति तत्र सामानादिकरण्यं तयोः अस्ति इति उक्तवन्तः तथैव अत्रापि अस्ति वा
अत्रापि अस्ति महोदय
अत्रापि गन्धाभावः अपि पृथिव्याभावः गन्धाभावः तयोः समानाधिकरण्यम् अत्रापि अस्ति
एतत् व्यतिरेकसहचारः भवति एवं च
सहचारः इति पूर्वं वयं किम् उक्तवन्तः सहचारः इत्युक्ते समानादिकरण्यं
कारण्यं सहचारः
अतः अत्र सहचारः इति वक्तुं शक्नुमः अपि व्यतिरेकः नास्ति इति तत्र अभावौ व्यतिरेको अभावौ अतः तत्र व्यतिरेकसहचारः अस्ति पूर्वम् अन्वयसहचारः
पूर्वोक्त अन्वयसहचारः व्यतिरेकसहचारश्च ययोः वर्तते तयोः कार्यकारणभावः निश्चितो भवति यत्र अन्वयसहचारः अस्ति अथवा व्यतिरेकसहचारः अस्ति तत्र तत्र कारणकार्यकार्यकारणभावः भवति यदा पृथ्वी इति कार्यं पश्यामः चेत् गन्ध इति कार्यं पश्यामः चेत् तत्र पृथ्वी कारणं भवति गन्धाभावः इति कार्यं पश्यामः चेत् पृथ्वी अभावः इति कार्यं कारणं भवति
किञ्चित् भिन्नमस्ति महोदय नाम पुनः एकवारं पठतु महोदय एवम्
एवं च पूर्वोक्त अन्वयसहचारः
एवं च एवं च
पूर्वं च पूर्वोक्त अन्वयसहचारः व्यतिरेकसहचारश्च ययोः वर्तते
तत्र अत्र च इति अस्ति खलु तर्हि तेन किं सूचितम् समूह चकारः समूहं सूचयति तत्र किं किं वर्तते
व्यतिरेकसहचारे अभावः वर्तते गन्धाभावः अनन्तरं
न महोदय तत्र नाम पूर्वोक्तम् अन्वयसहचारः अपि च व्यतिरेकसहचारः यदा भवति
तत् च इति सूचयति अन्वयसहचारः अनन्तरं व्यतिरेकसहचारः
द्वयमपि भवेत् द्वयमपि यदा भवति
वर्तते तयोः कार्यकारणभावः निश्चितो भवति तत्र तत्र कार्यकारणभावः अस्ति इति वयं वक्तुं शक्नुमः
केवलं तत्र अन्वयसहचारः अस्ति चेत् कार्यकारणभावः अस्ति इति न वक्तुं शक्नुमः
द्वयमपि भवेत्
अन्वयसहचारः अपि भवेत् व्यतिरेकसहचारः अपि भवेत् नाम यत्र एकमस्ति तत्र द्वितीयमपि भवेत् अपि यत्र प्रथमं नास्ति तत्र द्वितीयमपि न भवेत् न भवेत् तदा एव वयं कार्यकारणभवः इति वक्तुं शक्नुमः यत् नाम यत्र पूर्वं यस्मिन् सति कार्यं भवति यस्मिन् असति कार्यं नैव भवति इति अतः तत्र तदेव अत्र उक्तमस्ति नाम अन्वयसहचारः अपि भवेत् व्यतिरेकसहचारः च भवति चेदेव तत्र
कार्यकारणभावः
भवति समीचीनं महोदय अतः तत्र इदानीं तत्र चन्द्रमती भगिनी समीचीनं महोदय धन्यवादः चन्द्रमती इदानीं तत्र स्वशब्दैः किञ्चित् वदतु भगिनी तत्र व्यतिरेकसहचारः इत्युक्ते किम् अन्वयसहचारः इत्युक्ते किम्
तत्र कार्यम् अस्ति कारणम् अपि अस्ति अत्र पृथ्वी कारणेन एव गन्धः भवति अत्र पृथ्वी अस्ति गन्धः अस्ति तत्र अन्वयसहचारः वर्तते
तत्र कारणं कार्यम् इति त्यजतु यतोहि अन्वयसहचारः अस्ति चेदेव तदनन्तरमेव तत्र कार्यकारणभावः अस्ति न वा इति तस्य निर्णयः भवति अतः प्रथमतया अत्र यत्र पृथ्वी अस्ति तत्र
पृथ्वी अस्ति अत्र गन्धः अस्ति पृथ्व्याः अभावे गन्धः नास्ति पृथ्वी भवति चेत् गन्धः अपि भवति किन्तु
तर्हि एकनिमिषः तत्र पृथ्वी अस्ति चेत् गन्धः अस्ति तदा तयोः समानाधिकरण्यं सहचारः इति वक्तुं तत्र सहचारः अपि एषः सहचारः तत्र अन्वयसहचारः वा व्यतिरेकसहचारः वा
तद् अन्वयसहचारः
किमर्थम्
अत्र कार्यम् अस्ति कारणम् अपि अस्ति अस्ति
भावपदार्थः अस्ति इति कृत्वा
भावपदार्थः अस्ति
नाम किमपि कोऽपि पदार्थः कोऽपि पदार्थः अस्ति इति एव अतः भावपदार्थः गन्धः भावपदार्थः पृथ्वी अपि भावपदार्थः तर्हि भावयोः सामानादिकरणीयम् अस्ति चेत् अन्वयसहचारः
अन्वयसहचारः
इदानीं तत्र
बुद्धि नास्ति चेत् गन्धः अपि न भवति
नास्ति इदानीं पृथ्वी नास्ति इति कथं वदामः न्यायशास्त्रे पृथिव्याः
न अभावः
पृथिव्याः अभावः
पृथिव्याः अभावः अस्ति अतः गन्धस्य अभावः वर्तते
अस्ति अपि अस्ति तर्हि पृथिव्याः विद्यमानः अपि
द्वयोः विद्यमानत्वं नास्ति
हा किन्तु नाम द्वयोः इति विद्यमानत्वं तत्र अभावयोः विद्यमानत्वम् अस्ति खलु अभावः
अभावयोः विद्यमानत्वम् अस्ति
अभावयोः समानाधिकरणम् अस्ति तर्हि
भावस्य विद्यमानत्वं नास्ति अभावस्य विद्यमानत्वम् अस्ति
हा तर्हि अभावयोः समानाधिकरण्यम् अस्ति इति कृत्वा
अभावस्य समानाधिकरणम् अस्ति अभावस्य समानाधिकरणमस्ति अतः कारणेन अत्र व्यतिरेक समाचारः सहचारः व्यतिरेकसहचारः
नाम अन्यदपि चरति सहचारः
एकेन सह अन्यथा अपि वर्तते
यत्र यत्र एकं गच्छति तत्र तत्र अन्यदपि गच्छति सहचारः तर्हि व्यतिरेकसहचार तत्र अभावस्थले व्यतिरेकसहचारः भावपदार्थस्थले सहचारः
भवति चेत् भावपदार्थ अन्ये सहचारः अभावो व्यतिरेकसहचारः अभावः व्यतिरेकसहचारः
इति अस्ति हा तत्र तथा अस्ति समीचीनं भगिनि हा अस्तु अग्रे तत्र मृणालिनी भगिनी धन्यवादः भगिनी अस्तु अग्रे मृणालिनी भगिनी अत्र पठति वा
आम् आचार्य तर्हि द्वयोः भावयोः
तत् सर्वं कृतं भगिनि इदानीं तत्र अन्वयव्यतिरेकव्यभिचारौ
अन्वयव्यतिरेकव्यभिचारौ एतद्वयि किं कथम्
एतद् वैपरीत्येन
एतत् वैपरीत्येन कारणत्वेन अभिमते सत्यपि कार्योत्पत्तिः यत्र न भवति तत्र कारणस्य अन्वयः विद्यमानत्वं यद्यपि वर्तते परं कार्यस्य विद्यमानत्वं नास्ति इति अयम् अन्वयव्यभिचारः
पूर्वं किमासीत् पूर्वं सहचारः आसीत् इदानीं व्यभिचारः भवति व्यभिचारः पूर्वं सहचारः इदानीं व्यभिचारः एकवारं पठतु भगिनि हा पूर्वं पूर्णतया पठतु तदनन्तरं किञ्चित्
इह हि कारणत्वेन अभिमतस्य सत्त्वेपि कार्यत्वेन अभिमतस्य असत्त्वम् एवं कारणत्वेन अभिमतस्य असत्त्वेपि कार्यत्वेन अभिमतस्य उत्पत्तिः व्यतिरेकव्यभिचारः इत्युच्यते यथा तन्तुः घटं प्रति कारणं न वा इति सन्देहे तन्तौ सत्यापि घटः नोत्पद्यते इति ज्ञानवतः तत् अन्वयव्यभिचारज्ञानं भवति एवं घटोत्पत्तिदेशे तन्तौ असति अपि घटः उत्पद्यते इति जानानस्य तत् व्यतिरेकव्यभिचारज्ञानं भवति
अन्वयव्यतिरिक्त
इदानीं पूर्वं वयं किं पठितवन्तः अन्वय सहचारः सहचार अन्वयसहचारस्य तत्र उदाहरणं किम् आसीत्
अन्वयसहचारस्य उदाहरणमासीत् पृथिव्यां गन्ध अस्ति तर्हि पृथ्वी गन्धयोः समा किं
हा यत्र पृथ्वी अस्ति तत्र गन्धः अस्ति
आम् यत्र पृथ्वी अस्ति
गन्धः अस्ति तयोः समानाधिकरण्यम् अस्ति समानाधिकरण्यम् एव सहचारः अपि भावपदार्थः खलु पृथ्वी अपि गन्धः
सामानाधिकरणीयं
हा तर्हि अन्वयसहचारः इति वदामः अन्वयसहचारः इति वदामः यत्र अपि तत्र व्यतिरेक इति भवति तत्र व्यतिरेकस्य सहचारस्य किम् उदाहरणम्
समानेव यत्र
पृथिव्याः अभावः अस्ति
पृथिव्याः अभावः अस्ति चेत् गन्धस्य अपि अभावः
तर्हि तयोः अभावयोः सामानाधिकरणीयम् अस्ति वा
अभावयोः सामानाधिकरणीयम् अस्ति
तयोः सहचारः वर्तते सामानाधिकरणम् इत्युक्ते सहचारः तयोः सहचारः वर्तते अपि तत्र भावपदार्थः अस्ति वा गन्धाभावः अथवा पृथिवी अभावः अभावः इति एव अस्ति अतः भावपदार्थः नास्ति इति कृत्वा तत्तु अन्वयसहचारः न भवति खलु अतः नूतन सहचारः इति नामकरणं व्यतिरेकसहचारः तर्हि अन्वयसहचारः व्यतिरेकसहचारः इति अस्ति इदानीम् अस्मिन् परिच्छेदे किं भवति सहचारः इति वार्ता नास्ति इदानीं व्यभिचारः इति वार्ता अस्ति व्यभिचारः इति वार्ता अस्ति सहचारः न व्यभिचारः इति वार्ता नाम यत्र समानाधिकरणम् अस्ति अथवा नास्ति व्यभिचारः इति स्थले सहचारस्थले समानाधिकरण्यम् अस्ति तर्हि व्यभिचार इति स्थले समानाधिकरण्यं भवति अथवा न भवति किं चिन्तनं
न भवेत्
हा व्यभिचारस्थले समानाधिकरण्यं नास्ति अस्तु अतः एव तत्र इदानीं पठतु भगिनि तर्हि एतत्
वैपरीत्येन कारणत्वेन अभिमते सत्यपि कार्योत्पत्तिः यत्र न भवति तत्र कारणस्य अन्वयः
विद्यमानत्वं यद्यपि वर्तते पूर्वं पूर्णतया पठतु भगिनि एतावत् वाक्यम् एतावत् अस्ति
एतत् वैपरीत्येन कारणत्वेन अभिमते सत्यपि कार्योत्पत्तिः यत्र न भवति तत्र कारणस्य अन्वयः विद्यमानत्वं यद्यपि वर्तते परं कार्यस्य विद्यमानत्वं नास्ति इति अयम् अन्वयव्यभिचारः इत्युच्यते
तत्र कारणत्वेन अभिमते सत्यपि नाम चिन्तयामः एतत् कारणम् अस्ति इति चिन्तयामः अभिमतम् अस्ति अभिमतं नाम अस्माकं चिन्तनमस्ति ओ एतत् कारणं भवेत् इति चिन्तनं कारणत्वेन अभिमते सत्यपि तत्र एतत् कारणम् इति चिन्तयामः तद् अस्ति तत्र कार्योत्पत्तिः तत्र सत्यपि किं भवति कार्योत्पत्तिः तत्र न भवति
परन्तु
कार्योत्पत्तिः न भवति कारणस्य अन्वयः अन्वय नाम विद्यमानत्वं कारणम् अस्ति तत्र कारणम् अस्ति यद्यपि वर्तते विद्यमानत्वं यद्यपि वर्तते किन्तु कार्यस्य विद्यमानत्वं नास्ति नाम कारणम् अस्ति कारणम् इति यत् चिन्तयामः तद् अस्ति किन्तु कार्यं यत् तत् कार्यम् इति यत् चिन्तयामः तद् नास्ति पदार्थद्वयमस्ति वयं चिन्तयामः प्रथमपदार्थः एव द्वितीयपदार्थं प्रति कारणम् इति चिन्तयामः प्रथमपदार्थः कारणम् इति चिन्तयामः द्वितीयपदार्थः कार्यम् इति चिन्तयामः किन्तु निर्धारः भवेत् तदा किं वयं पश्यामः यत् कारणम् इति चिन्तयामः तत्तु अस्ति किन्तु कार्यम् इति यत् चिन्तयामः तद् नास्ति तद् किम् तत्र सामानादिकरणं नास्ति किन्तु भावपदार्थः खलु तत्र कारणं तु अस्ति तत्र तर्हि वयं किं भवति तत्र विद्यमानत्वम् अतः अन्वयव्यभिचारः इति उच्यते कारणम् अस्ति किन्तु कार्यं नास्ति चेत् अन्वयव्यभिचारः तत्र आदौ भागे तत्र उदाहरणं दत्तमस्ति एकवारं पठतु तन्तौ सत्यपि
यथा तन्तौ सत्यपि घटः नोत्पद्यते
तत्र कारणम् अभिमतं कारणं किमस्ति
घटोत्पत्तेः कृते
घटः कार्यं घटः कार्यम् इति चिन्तयामः कारणं किम् इति चिन्तयामः अत्र अस्मिन् उदाहरणे वयं चिन्तयामः कोऽपि चिन्तयति ओ तन्तवः तन्तुः घटं प्रति कारणम् इति चिन्तयति किन्तु किं भवति तत्र तन्तौ सत्यपि तन्तुः अस्ति तथापि घटः
उत्पद्यते
नोत्पद्यते तर्हि तत्र तन्तुः अस्ति कारणम् अभिमतं कारणम् अस्ति किन्तु यत् कार्यमिति चिन्तितवन्तः तद् तस्य उत्पत्तिः न अभवत् तर्हि अस्मिन् स्थितौ वयं अस्यां स्थितौ वयं किं वदामः तत्र अन्वयव्यभिचारः अस्ति इति चिन्तयामः तर्हि इति ज्ञानवतः इति यत् ज्ञातवान् ज्ञानवतः तत्र विभक्ति का तत्र ज्ञानवतः
षष्ठी
प्रथमविभक्त्यां ज्ञानवान् यस्य ज्ञानम् अस्ति तस्य ज्ञानं कीदृशं भवति तत् अन्वयव्यभिचारज्ञानम् इति तस्य भवति खलु यतोहि अत्र कारणम् अस्ति कार्यस्य उत्पत्तिः न अभवत् तर्हि कारणम् अस्ति इति कृत्वा कारणं नाम अभिमतं कारणम् एतत् कारणम् इति चिन्तितवन्तः तत्तु अस्ति तर्हि अन्वयः अस्ति किन्तु सामानादिकरणं नास्ति तर्हि सहचारः नास्ति व्यभिचारः अस्ति अतः अत्र अन्वयव्यभिचारः इति व्यवहारः अत्र भवति अस्तु समीचीनं भगिनि अस्तु इदानीं तत्र चन्द्रमती भगिनी भवती न पठितवती अतः इदानीम् अग्रे तत्र इतः आरभ्य इह हि इति ततः आरभ्य पठतु भगिनि
इह हि कारणत्वेन अभिमदस्य सत्त्वे अपि कार्यत्वेन अभिमदस्य असत्यम्
असत्त्वम्
एवं कारणत्वेन अभिमदस्य असत्त्वे अपि कार्यत्वेन अभिमदस्य उत्पत्तिः व्यतिरेकव्यभिचारः इत्युच्यते यथा तन्तुः घटं प्रति कारणं न वा इति सन्देहे तन्तौ सत्यपि खडः नोत्पद्यते इति ज्ञानवतः तद् अन्यय व्यभिचारज्ञानं भवति एवं खडोत्पत्तिदेशे तन्तौ अस्ति अपि खडः असति अपि खडः उत्पद्यते इति ज्ञानस्य तत् ज्ञानानस्य तद् व्यतिरेकव्यभिचारज्ञानं भवति इह हि कारणत्वेन अभिमतस्य सत्त्वे अपि कार्यत्वेन अभिमतस्य असत्त्वम्
अन्वयव्यभिचारस्थले किं भवति
अन्वयव्यभिचारस्थले अन्वयव्यभिचारस्थले कार्यं न भवति कारणत्वेन अभिमतस्य सत्त्वे
नाम उदाहरणं तन्तुः घटं प्रति कारणम् इति सन्देहः तर्हि तन्तुः कारणत्वेन अभिमतम् अस्ति नाम तन्तुः कारणम् इति चिन्तनं
तद् अन्य विचारज्ञानं भवति
तन्तुः कारणत्वेन अभिमतम् इत्युक्ते तस्य सत्त्वे अपि नाम तन्तुः अस्ति चेत् अस्ति
तन्तुः अस्ति तत्कारणेन घटं भवति इति एकं ज्ञानम्
न चिन्तन तत्र सन्देहः अस्ति
सन्देहः
किं तन्तुः घटं प्रति कारणम् अस्ति न वा इति सन्देहः तर्हि तत्र निर्धारः कथं भवति अस्तु तत्र तन्तुः अस्ति चेत् तत्र किम् अस्ति तथापि घटः उत्पद्यते वा केवलं तन्तुः अस्ति चेत् न भवति तर्हि कारणत्वेन अभिमतस्य सत्त्वे अपि कारणमिति यत् चिन्तयामः तद् अस्ति तथापि कार्यत्वेन अभिमतस्य असत्त्वम् कारणमिति यत् चिन्तितवन्तः अभिमतं
तन्तुः तन्तुः एव खडस्य कारणम् इति चिन्तितवन्तः
तर्हि कारण अभिमतस्य कारणत्वेन अभिमतस्य विद्यमानत्वम् अस्ति विद्यमानत्वम् अस्ति कारणत्वस्य किन्तु कार्यत्वेन विद्या अभिमतस्य असत्त्वम् अस्ति खलु तन्तुः कारणत्वेन अभिमतस्य सत्त्वं तस्य तन्तुः अस्ति तथापि कार्यत्वेन अभिमतस्य असत्त्वं कार्यमिति यत् चिन्तितवन्तः तस्य असत्त्वं तदा अन्वयव्यभिचारः इति वदामः
अभिमतस्य इत्युक्ते आक्चुलि सत्यं नास्ति
वा वस्तुतः कारणं नास्ति किन्तु अस्मिन् समये वयं न जानीमः तत्र केवलं निर्धारः भवति तदा वयं यदि पश्यामः
तादृशं चिन्तयति
कारणमिति यत् चिन्तितवन्तः तत्तु अस्ति किन्तु कार्यं न कार्यस्य उत्पत्तिः न अभवत् तदनन्तरं वयं जानीमः अस्तु एतत् कारणं नास्ति किन्तु अस्मिन् सन्दर्भे तयोः सम्बन्धः कीदृशः इत्युक्ते तत्र अन्वयव्यभिचारः सम्बन्धः तयोः पृथ्वीगन्धयोः तत्र अन्वयसहचारः सम्बन्धः अत्र तन्तुः अपि घटः तयोः मध्ये कः सम्बन्धः इत्युक्ते तत्र अन्वयव्यभिचारः इति सम्बन्धः तत्र
अन्वयव्यतिरेकव्यभिचारः वा
अन्वयसहचारः
अन्वयसहचारः पृथ्वीगन्धयोः किन्तु तन्तुखडयोः
व्यभिचारः अग्रिमे सप्ताहे तत्र वयं व्यतिरेकव्यभिचारः कः इति अग्रिमसप्ताहे द्रक्ष्यामः
अत्र व्यतिरेकव्यभिचारः इति दत्तमस्ति अतः
तत्र व्यभिचारौ तत्र अन्वयव्यतिरेकव्यभिचारौ
भिन्नम् अन्वयव्यभिचारौ व्यतिरेकव्यभिचारौ
अन्वयव्यभिचारः इति एकः
अन्वयव्यभिचारः
द्वितीयः
त्रय अन्वयव्यभिचारः तन्तु अस्ति किन्तु घटं न भवति इति चिन्तनं
इति सत्यं तदेव अन्वयव्यभिचारः
व्यतिरेकविचारः
अग्रिमसप्ताहे द्रक्ष्यामः अस्मिन् परिच्छेदे एव दत्तमस्ति किन्तु अग्रिमसप्ताहे द्रक्ष्यामः समीचीनम् अस्तु तर्हि बहु समीचीनमस्ति बहु किमपि अर्पितवन्तः अद्य धन्यवादः नमस्कारः अग्रिमसप्ते मिलामः नमस्कारः
धन्यवादः महोदय